इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। बिहार विधानसभा निर्वाचनार्थं गतिविधयः तावत् सजवं प्रवर्तन्ते। जनता दल यूनाइटेड पक्षेण 57 प्रत्याशिनां स्वीया प्रथमा सूची, अपरत्र भाजपेति दलेन 12 प्रत्याशिनां स्वीया द्वितीय सूची प्रकाशिता। प्रधानमंत्री अथ वरिष्ठः भाजपा नेता श्री नरेन्द्र मोदी अद्य दलस्य बूथ स्तरीय कार्यकर्तृभिः सह आभासीय माध्यमेन बिहार विधानसभा निर्वाचनार्थं स्वस्य अभियानस्य आरम्भं करिष्यति। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अद्य नवदिल्ल्याः भारतमण्डपे एशियायाः बृहत्तमायाः अन्ताराष्ट्रिय रेलवे उपकरण प्रदर्शन्याः उद्घाटनम् अकरोत्। अपि च सर्वोच्च न्यायालयेन आगामि दीपावली उत्सवस्यावधौ दिल्लीनगरे तथा राष्ट्रिय राजधानी क्षेत्रे हरित विस्फोटकानां विक्रयणस्य विस्फोटनस्य च अनुमतिः प्रदत्ता। अथ वार्ताः विस्तरेण। बिहार विधानसभा निर्वाचनार्थं गतिविधयः तावत् सजवं प्रवर्तन्ते। भारतीय जनता पार्टीति दलानन्तरं जनता दल यूनाइटेड पक्षेणापि 57 प्रत्याशिनां स्वीया प्रथमा सूची निस्सारिता। अस्माकं संवाददात्रा विज्ञापितं यत् दलेन बहुभ्यः विधायकेभ्यः राज्यमन्त्रिभ्यश्च पुनः निर्वाचनद्वन्द्वे भागग्रहणाय अवसरः प्रदत्तः। बिहार विधानसभायाः उपाध्यक्षः वरिष्ठः नेता च नरेन्द्र नारायण यादवः मधेपुरा मण्डलस्य आलमनगर निर्वाचनक्षेत्रात् निर्वाचने योत्स्यते। अन्यः महेश्वर हजारी इत्येषः समस्तीपुर जनपदस्य कल्याणपुर निर्वाचनक्षेत्रात् निर्वाचनं करिष्यति। पूर्वसांसदः अश्वमेध देवी इत्यस्यै समस्तीपुर विधानसभाक्षेत्रात् निर्वाचनपत्रं प्रदत्तम्। पूर्वमन्त्री श्यामरजकः फुलवारी शरीफ निर्वाचनक्षेत्रात् तथा सन्तोष निराला राजनगरतः निर्वाचनद्वन्द्वे स्पर्धिष्यतः। पलियानगरे वार्ताहरैः सह सम्भाषमाणः बिहार भाजपा प्रमुखः दिलीप जायसवालः अवदत् यत् सर्वेषां दलानां मध्ये आसनविभाजनस्य निर्वाचनक्षेत्राणां च विषये चर्चा समभवत्। सः अवदत् यत् एतासां चर्चाणाम् अनन्तरं प्रत्येकः पक्षः इदानीं स्वस्वप्रत्याशिनां नामानि घोषयति। बिहारस्य उपमुख्यमन्त्री विजयसिन्हा इत्येषः लखनी सरल विधानसभाक्षेत्रात् स्वस्य नामांकनं प्रदत्तवान्। तत्रैव महागठबन्धनस्य घटकदलस्य आरजेडी पक्षस्य नेता मृत्युञ्जय तिवारी अवदत् यत् महागठबन्धनं संघटितमस्ति तथा दृढतया निर्वाचनद्वन्द्वे योत्स्यते। प्रधानमन्त्री अथ वरिष्ठ भाजपा नेता श्री नरेन्द्र मोदी अद्य दलस्य बूथ स्तरीय कार्यकर्तृभिः सह आभासीय माध्यमेन बिहार विधानसभा निर्वाचनार्थं स्वस्य अभियानस्य आरम्भं करिष्यति। मेरा बूथ सबसे मजबूत अभियानस्यास्यान्तर्गतं श्रीमोदी दलस्य कार्यकर्तृभिः सह संवादं करिष्यति। एनडीए गठबन्धनस्य घटकदलेषु भाजपादलेन बिहार विधानसभा निर्वाचनार्थं 170 अभ्यर्थिनां प्रथमा सूची प्रकाशिता अस्ति। एनडीए इत्यस्य अन्यः सहयोगी हिन्दुस्तानी आवाम मोर्चा इत्यनेन अपि राज्य विधानसभा निर्वाचनार्थं 6 अभ्यर्थिनां सूची प्रकाशिता। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अद्य नवदिल्ल्याः भारतमण्डपे एशियायाः बृहत्तमायं तथा विश्वस्य द्वितीय बृहत्तमां रेलवे प्रदर्शनीम् उद्घाटितवान्। इयं वस्तुतः 25,000,000 षोडश अन्ताराष्ट्रिय रेलोपकरण प्रदर्शनी वर्तते। अवधेयास्पदमिदं यत् 15 अपि अधिकेभ्यः देशेभ्यः 15,400 प्रदर्शकाः अत्याधुनिक रेल मेट्रो उत्पादनानां नवाचाराणां सहैव स्थायि समाधानानां च प्रदर्शनं कुर्वन्ति। अत्रावसरे भाषमाणः श्री वैष्णवः अवदत् यत् गतेषु 11 वर्षेषु प्रधानमन्त्री नरेन्द्र मोदी रेलवे तन्त्रस्य आधुनिकीकरणे अवधानं प्रदत्तवान्। सः अवदत् यत् रेलविभागः द्रुतगत्या आधुनिकीकरणाय प्रतिवर्षं 50,000,000,000 रूप्यकाणां निवेशं कुर्वन् अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्च न्यायालयेन आगामि दीपावली उत्सवस्यावधौ दिल्लीनगरे तथा राष्ट्रिय राजधानी क्षेत्रे हरित विस्फोटकानां विक्रयणस्य विस्फोटनस्य च अनुमति प्रदत्ता। अत्र तावत् उत्सवस्य आचरणे पर्यावरणस्य संरक्षणे च संतुलितः दृष्टिकोणः इति वर्णितः। भारतस्य मुख्य न्यायाधीशः वी आर गवई तथा न्यायमूर्ति विनोद चंद्रन इत्येतयोः पीठेन संयुक्तादेशे उक्तं यत् अक्टूबर मासस्य 18 दिनांकात् अक्टूबर मासस्य 20 दिनांक पर्यन्तं हरित विस्फोटकानां विक्रयणस्य अनुमति प्रदीयते। सर्वोच्च न्यायालयेन इतोपि निर्देशः प्रदत्तः यत् दीपावल्याः पूर्वदिने अपि च दीपावल्याः दिने च दिनद्वये प्रातः 6 प्रातः 7 सायं 8 10 पर्यन्तं च एतादृशानां हरितविस्फोटकानां प्रज्वलनस्य अनुमति प्रदत्ता। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति सीपी राधाकृष्णनः, प्रधानमन्त्री नरेन्द्र मोदी च अद्य भारतरत्नं प्रख्यातं वैज्ञानिकं तथा पूर्व राष्ट्रपतिं डॉ एपीजे अब्दुल कलाम वर्यं तस्य जयन्त्यवसरे स्मृतवन्तः। सामाजिक अन्तर्जालीय सन्देशे उपराष्ट्रपतिः राधाकृष्णन वर्यः डॉ कलामं दूरदर्शी वैज्ञानिकः, प्रेरकः, नेता, देशभक्तश्च इति उक्तवान्। राजस्थाने जैसलमेर समीपे ह्यः एका दुखद मार्ग दुर्घटना अभवत्। वायुनियन्त्रित शयन लोकबसयाने अग्निना दह्यमाने 21 जनाः मृताः, अन्ये च अनेके तीव्रतया व्रणिताः सन्ति। अत्रान्तरे एकः 10 बालकः अपि मृत्युमुपगतः। जैसलमेर जोधपुर राजमार्गे सायं 3:30 समीपे एषा घटना अभवत्। राष्ट्रपतिः द्रौपदी मुर्मू सामाजिक माध्यम मञ्चे इत्यत्र स्वस्य दुःखं प्रकटितवती। सा शोकग्रस्त परिवारेभ्यः गभीराः शोक संवेदनाः प्रकटितवती। घातितानां शीघ्रं स्वास्थ्यतायै च प्रार्थनां कृतवती। प्रधानमन्त्री नरेन्द्रमोदी दुःखद घटनायाः विषये अतीव दुःखं प्रकटितवान्। घातितानां शीघ्रं स्वस्थतायाः च कामनाम् अकरोत्। केन्द्रसर्वकारेण मृतानां निकटजनानां कृते 2,00,000, आहतानां कृते 50,000 अनुग्रह राशि घोषितः। महाराष्ट्रे अद्य 1 यावत् वरिष्ठाः नक्सलवादिनः मुख्यमन्त्रिणः देवेन्द्र फडणवीस वर्यस्य उपस्थितौ गडचिरौली आरक्षकाणां समक्षम् आत्मसमर्पणं कृतवन्तः। केन्द्रीय नक्सल समित्याः पॉलिट ब्यूरो सदस्यः मल्लुजोला वेणुगोपाल रावः अथवा भूपतिः अद्य गढ़चिरौली नगरे आयोजिते कार्यक्रमे अन्यैः 60 वरिष्ठैः नक्सल सदस्यैः च सह आत्मसमर्पणं कृतवान्। एते सर्वे 61 नक्सलवादिनः 6 सामूहिक पारितोषकं वहन्ति स्म। समूहे विभागीय समिति सदस्याः, क्षेत्र समिति दल सदस्याः इत्यादयः उच्चपदासीनाः सदस्याः सन्ति। नक्सलवादिनः स्वशस्त्रं त्यक्तवन्तः तथा च मुख्यमन्त्री देवेन्द्र फडणवीस एतेषां शरणागतानां नक्सलवादिनां मुख्यधारायां स्वागतस्य प्रतीकरूपेण भारतीय संविधानस्य प्रतिलिपिं प्रदत्तवान्। अस्मिन् अवसरे श्रीदेवेन्द्रः अवदत् यत् इदं महाराष्ट्रस्य नक्सल आन्दोलनस्य इतिहासे अद्यावधि पर्यन्तं बृहत्तमं सामूहिक आत्मसमर्पणम् अस्ति इति। ब्राजीलदेशस्य उपराष्ट्रपतिः गेराल्डो अल्कमिनः अद्य अपराह्णे भारतस्य 3-दिवसीय यात्रायै नवदिल्लीं सम्प्राप्तवान्। सः श्वः वाणिज्योद्योगमन्त्रिणा पीयूष गोयलेन सह व्यापार मन्त्रिस्तरीय समीक्षोपवेशनं करिष्यति। बी आर चोपड़ा इत्यस्य चलचित्रे कर्णस्य पात्रस्य कृते प्रसिद्धः वरिष्ठः अभिनेता पंकजधीरः अद्य मुंबई नगरे 68 वयसि कर्करोगेण युद्धान्तरं दिवंगतः। तस्य अन्त्येष्टिक्रिया अद्य सायंकाले मुंबई नगरे भविष्यति। इति वार्ताः।